इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। सर्वेभ्यः श्रोतृभ्यः चैत्र नवरात्रस्य नववर्षस्य च हार्दिक्यः शुभकामनाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी प्रत्यपादयत् यत् देशस्य समेषामपि आदिवासी जनजातीय परिवाराणां जीवनं सुष्ठुतर विधानं मोदिनः प्रत्याभूतिः अस्ति। प्रधानमन्त्री ह्यः छत्तीसगढस्य बस्तर संभागे आमाबलक ग्रामे आयोजितायां जनसभायाम् उक्तवान् यत् जनानां स्वप्नः एव मोदिनः प्रत्याभूतिः अस्ति। अमुना प्रोक्तं यत् तस्य लक्ष्यं देशस्य विकासेन साकं देशस्य समेषां परिवाराणां समृद्धिकरणम् अस्ति। अमुना एतदपि भणितं यत् विगतेष् दशवर्षेष् केन्द्रस्य भाजपा सर्वकारेण निर्धनानां कल्याणार्थं नैका योजना निर्मिता सन्ति। छत्तीसगढस्य बस्तर मध्ये जनसभामेकां सम्बोधयन् कांग्रेसदले वाग्बाणान् प्रहणन् प्रधानमन्त्री उक्तवान् यत् कांग्रेसदलस्य सर्वकारस्य काले भ्रष्टाचार एव देशस्य अभिज्ञानम् आसीत्। भ्रष्टाचारत सर्वाधिका हानि निर्धनानां भवति, यतोहि अस्मिन् कार्ये निर्धनानां एव अधिकार हन्यते। कांग्रेस सर्वकारे दिल्लीत एकरूप्यकं प्रख्याप्यते स्म, परं ग्रामं यावत् पञ्चदश पणकानि एव प्राप्यन्ते स्म। एतद् मया नैव अपितु कांग्रेस प्रधानमन्त्रिणा एव प्रोक्तमासीत्। कांग्रेसदलेन प्रतिपादनीयं यत् स कतम हस्त आसीत् य निर्धनानां पञ्चाशीति पणकानि लुण्ठति स्म। सम्प्रति मोदिना कांग्रेसस्य लुण्ठनस्य समस्ता व्यवस्था एव समापिता अस्ति। तत्र जनान् सम्बोधयन् श्रीमोदी प्रावोचत् यत् अहं तर्जनाभ्य नैव बिभेमि, भ्रष्टाचारिजनान् कारागृहं सम्प्रेष्य एव सन्तुष्य। प्रधानमन्त्री गतसायं महाराष्ट्रस्य चन्द्रपुर लोकसभाया भाजपा प्रत्याशिन समर्थने, गढ़चिरौली लोकसभाया च भाजपा प्रत्याशिन समर्थने जनसभा सम्बोधितवान्। तत्रासौ भाजपा दलीय प्रत्याशिनो समर्थने जनान् भाजपा प्रत्याशिभ्यां मतं प्रदातुम् अध्यार्थयत्। अत्र तेन प्राक्तन सर्वकार आक्षिप्त। चन्द्रपुरस्य मोरवा विमानपत्तन प्रांगणे आयोजिते सार्वजनिकेऽस्मिन् जनसम्मेलने राज्यस्य वरिष्ठ भाजपा नेता, महाराष्ट्रे महासंयुति संयुतौ समाविष्टा नेतारश्च उपातिष्ठन्त। दिल्ल्या एकेन न्यायालयेन बीआरएस इत्यस्या भारत राष्ट्र समितेः नेत्र्या के कविताया कारागारात् विमोचनार्थं कृता अभ्यर्थना निरस्तीकृता। अवधेयं यत् प्रवर्तन निदेशालयेन कथित मद्यनीति प्रवञ्चनायां के कविता निगडिता अस्ति। विशिष्ट केन्द्रीयान्वेषणाभिकरणस्य न्यायालयस्य न्यायाधीशेन कावेरी बावेजा इत्यनया तस्या विमोचन याचना अस्वीकृता। के कविता स्वीय पुत्रस्य परीक्षायै आवश्यकं नैतिकं भावनात्मकं सहयोगं च अवलम्ब्य याचिकां प्रस्तुतवती आसीत्। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया, उपराष्ट्रपतिना जगदीप धनखडेन च चैत्र शुक्लादि, उगादि, गुडी पड़वा, चेटीचण्ड, नवरेः, सजीवु चेईराओबा पर्वणाम् अवसरे देशवासिनः वर्धापिताः। राष्ट्रपतिना उक्तं यत् एतानि पर्वाणि नववर्षस्य स्वागताय अवसराः सन्ति। ध्यानास्पदमस्ति यत् अद्य अशेष देशे अत्रावसरे विभिन्न कार्यक्रमाः आयोज्यन्ते। अन्ते क्रीडावार्तासु, इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ चेन्नई नगरे एमए चिदम्बरम क्रीडांगणे आयोजिते द्वन्द्वे चेन्नई सुपर किंग्स दलेन कोलकाता नाइट राइडर्स दलं सप्तभिः क्रीडकैः पराजितम्। अद्यतने द्वन्द्वे चण्डीगढे महाराज यादवेन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे पंजाब किंग्स दलं सनराइजर्स हैदराबाद दलेन स्पर्धिष्यते। भारतीय कालानुसारे स्पर्धेयं सायं सार्ध सप्तवादने आरप्स्यते।